एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। संसदः गतिरोधस्य अन्ताय वार्तायाम् संवादे च आगन्तुम् प्रमुख प्रतिपक्षी नेकपा एमाले दलम् सर्वदलीयोपवेशेन अनुरूद्धम् वर्तते। प्रधानमन्त्रिणः शेरबहादुर देउवाभिधस्य आह्वाने बालबाटार वर्तिनी प्रधानमन्त्री निवासे ह्या उपविष्टे सर्वदलीयोपवेशे प्रमुख प्रतिपक्षी दलस्य अनुपस्थिति मनु वार्ता संवादयोर्माध्यमेन समस्याया समाधानमन्वेष्टुम् उपवेशेन प्रमुख प्रतिपक्षी नेकपा एमाले दलम् अनुरूद्धमस्ति। उपवेशस्य पश्चात् संचारकर्मीभिः सह सर्वकारस्य प्रवक्ता च संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की, जनवाण्याः प्रस्तोत्री संसद केनापि चिराय नावरोद्धव्येति उपवेशेन निष्कर्षम् प्रकाश्य संवादे आगन्तुम् एमाले दलम् अनुरूद्धमिति अभासत। उपवेशे एमसीसी नामिकायाः अमेरिका देशीय सहयोग परियोजनायाः संसदा पारितीकरणस्य विषयो विमृष्टः सन्नपि दलानां मध्ये सहमतिर्न धृता। परियोजनायाः कतिपय विषयेषु कतिचित् दलानां असहमते कारणेन अतिरिक्तं विमृश्य अग्रे वर्धितव्यमिति उपवेशेन निष्कर्ष प्रकाशितः इति च सर्वकारस्य प्रवक्ता मन्त्री कार्की अज्ञापयत्। नेपाल मजदूर किसान पार्टीति दलस्य नेता प्रेम सुवालः उपवेशे दलानां मध्ये समान धारणा निर्मायैव एमसीसी परियोजना अग्रे नेतव्येति धारणा व्यक्तेति चर्चयन् आत्मना संसद गतिरोधस्य सम्बन्धे संसद स्थगिति कर्तव्य अन्यथा सुचारू सञ्चालयितव्येति धारणा प्रकटितेति अवदत्। बालबाटार वर्तिने प्रधानमन्त्री निवासे उपविष्टे तस्मिन् उपवेशे प्रमुख प्रतिपक्षी नेकपा एमाले दलम् विहाय संसदीय प्रतिनिधित्व विदधानानां सर्वेषां राजनैतिक दलानां सहभागिता आसीत्। सत्ता गठबन्धनस्य दलानाम् उपवेशेन एमसीसी नाम्न्याः अमेरिका देशीय सहयोग परियोजनायाः विषये अन्यैर्दलैस्सह विमर्शनाय निर्णय प्राप्त्यर्थं च त्रिसदस्यीयं कार्यदलं संघटितं वर्तते। प्रधानमन्त्रिणा नेपाली कांग्रेस दलस्य सभापतिना च शेरबहादुर देउवाभिधेन आकारितेन सत्तारूढ गठबन्धनस्य उपवेशेन नेकपा एकीकृत समाजवादिनो वरिष्ठ नेतुः झलनाथ खनालस्य संचार सूचना प्रविधि मन्त्रिणः कांग्रेस दलस्य नेतुश्च ज्ञानेन्द्र बहादुर कार्किणः नेकपा माओवादी केन्द्रस्य उपाध्यक्षस्य नारायण काजी श्रेष्ठस्य च समावेशनत्वेन कार्यदलमेतत् संघटितमस्तीति प्रधानमन्त्रिणः सचिवालय ज्ञापयति। प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च शेरबहादुर देउवा कथयति राष्ट्रस्य एकतायाः सुदृढीकरणाय मौलिक संस्कृतिः सभ्यता च संरक्षणीये। राष्ट्रिय ज्यापु दिवसस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री देउवा अवदत् नेपालस्य मौलिक संस्कृतेः सभ्यतायाश्च संरक्षणं सर्वेषां संयुक्त दायित्वमस्ति। प्रधानमन्त्री देउवा ज्यापु समाजस्य स्वस्य मौलिक कला संस्कृत्योः संरक्षणे विशेष सक्रियतायाः कारणेन काष्ठमण्डपोपत्यकायाः पृथक् सांस्कृतिक परिचयोस्तीति चर्चयन् सर्वैः समुदायै स्वस्य मौलिक कला संस्कृति परम्पराणां संरक्षणे ध्यानं प्रदातव्यमित्यवृत्त। प्रधानमन्त्री देउवा अभासत मौलिक संस्कृतेः संरक्षण प्रवर्धनयोः कृते सर्वकारः तत्परोऽस्ति। कार्यक्रमे संघीय विषय सामान्य प्रशासन मन्त्री राजेन्द्र प्रसाद श्रेष्ठ कथयत् नेपालस्य परिचयं विश्वस्मिन् विश्वे प्रवर्धयितुं ज्यापु समाजस्य मौलिक संस्कृतेः महत्वपूर्णं योगदानमस्ति। नेपाली कांग्रेस दलस्य पूर्व महामन्त्री प्रकाशमान सिंह अवोचत् राजधान्याः काष्ठमण्डपस्य कला संस्कृति सम्पच्च नेपालस्य विश्वापणे परिचयाय महत्वपूर्णाः माध्यमाः वर्तन्ते। नेपाली कांग्रेस दलस्य चतुर्दश महाधिवेशनस्य अन्तर्गतं स्वतन्त्र पक्षस्य केन्द्रीय सदस्य पदस्य मतगणना सम्पन्ना वर्तते। मतगणनायाः परिणामस्य अनुसारेण डाक्टर शशांक कोइराला सर्वाधिकानि सहस्रत्रयं षड्त्रिंशत् अधिकाष्ट शतञ्च मतानि प्राप्य केन्द्रीय सदस्य पदे विजयी सम्मृत वर्तते। एवमेव संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की, गृहमन्त्री बालकृष्ण खाँच केन्द्रीय सदस्य पदे विजयिनौ सम्मृत वर्तेते। स्वतन्त्र पक्षस्य पञ्चत्रिंशत् सदस्य पदानां कृते उनशतं प्रत्याशिनः प्रतिस्पर्धायाम् आसन्। महिलानां मधेस समूहस्य च केन्द्रीय सदस्य पदस्य मतगणना विद्यमाना स्थिति नेपाली कांग्रेस दलस्य केन्द्रीय निर्वाचन समितेः सचिवः केशव रिजालो ज्ञापयति। सर्वकारेण ह्य देशस्य सप्तपञ्चाशतो जनपदानां बालबालिकासु कोरोना प्रतिरोधिना टीकाकरणस्य आधानं प्रारब्धमस्ति। स्वास्थ्य जनसंख्या मन्त्री विरोद खतिवडा आत्मना विहिताध्ययनस्य मकवानपुर जनपदस्य हेटौडोप महानगरपालिका वर्तिनः भूटन देवी माध्यमिक विद्यालयस्य टीकाकरण केन्द्रात् टीकाकरणाधान कार्यस्य औपचारिकं शुभारम्भं व्यदधात्। तदवसरे मन्त्री खतिवडा अवदत् टीकाकरणाधानाभियानात् कोऽपि वञ्चितो न भवति। सर्वासां बालबालिकानां टीकाकरण असम्पादनम् यावत् अभियानमेतत् निरन्तरम् चलति च। अत्रान्तरे आराष्ट्रम् ह्य अतिरिक्तेषु एकाशीत्यधिक शते जनेषु कोरोना विषाणो संक्रमणम् पुष्टीभूतम् वर्तते। ह्य उननवत्युत्तर शतद्वयम् जना कोरोना विषाणो संक्रमणात् मुक्ताः सन्ति। ह्यस्तनावधि कोरोना विषाणो मुक्तानाम् जनानाम् अनुपातः प्रतिशतम् अष्टनवतिरस्ति। संक्रमणेन ह्य एको जनो मृत इति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। काष्ठमण्डपोपत्यकायाम् याचनायाः प्रतिशतम् केवलम् एकतृतीयांशस्य जलस्य आपूर्तिः विद्यमाना वर्तते। उपत्यकायाम् प्रतिदिनम् आसन्न त्रिचत्वारिंशत् कोटि लिटर मितस्य जलस्य याचनायाम् सत्यमपि काष्ठमण्डपोपत्यका पेयजल संस्थानेन याचनायाः प्रतिशतम् एकतृतीयांशादपि न्यूनमात्रायाम् आसन्न त्रयोदश कोटि लिटर मितम् जलमेव उत्पाद्यमानम् वितीर्य ह्रियमाणं च वर्तत इति ज्ञापितमस्ति। इति समाचारः।